एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणः केपी शर्मा ओलिनः नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिधस्य च मध्ये राष्ट्रस्य सामयिक राजनीतिक परिस्थितेः सन्दर्भे ह्यो विमर्शनम् अभवत्। प्रधानमन्त्री निवासे बाल्वाटार स्थाने सम्भूते तस्मिन् विमर्शने नेतृणां मध्ये राष्ट्रस्य सञ्चालनस्य क्रमे संयुक्त सहमति सहकार्ययोः आधारे अग्रे वर्धितुं सहमते धृतेति विमर्शने सहभागी नेकपा संसदीय दलस्य उपनेता सुभाष नेवांग अज्ञापयत्। उपनेता नेवांग राष्ट्र सञ्चालनस्य क्रमे कतिपय कार्याणि प्रतिपक्षिणा साहपि मिलित्वा कर्तव्यानि भवन्तीति कारणात् प्रधानमन्त्री ओली प्रतिपक्षी दलस्य नेत्रा सह व्यमृशद इति अवोचत्। उपनेता नेवांग अब्रवीत् संसद सञ्चालनाद् राजनीतिक नियुक्तिं यावत् सर्वाणि कार्याणि सहमतेः आधारे विधातुं सहमतिर्धृता वर्तते। उप प्रधान रक्षा मन्त्री ईश्वर पोखरेलः गदति नेकपा राजपा दलयोः गठबन्धनं सहकार्यञ्च दीर्घकालं यावस्थास्यति। राष्ट्रियसभायां निर्वाचितानां प्रतिनिधीनां कृते नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य महोत्तरी शाखया वर्दीवासस्थाने ह्यः आयोजिते कार्यक्रमे उप प्रधानमन्त्री पोखरेलः अगदत् तराई मधेस क्षेत्रस्य विकासः समृद्धिश्च दलद्वयस्य सहकार्य भवता इति हेतोः द्वितीय प्रदेश सभायामपि सहकार्यं गठबन्धनं च आवश्यके स्तः। गृहमन्त्री रामबहादुर थापा भाषते मिलेनियम च्यालेञ्ज कर्पोरेशन इति अमेरिकीय सहयोग प्रस्ताव परियोजना कतिचित् प्रावधानानां परिमार्जनेन सह पारिती करिष्यते। गतदिने सुर्खेत जनपदे आयोजिते पत्रकार मेलन कार्यक्रमे गृहमन्त्री थापा अवोचत् एमसीसी परियोजना राष्ट्रियहिते भवनीयेति विमर्शनं सञ्चलदस्ति। सभामुखस्य घोषणायाः पश्चात् संसदि परियोजनेयं प्रस्तुष्यते च। चीनदेशे भयावहावस्थायां स्थितस्य कोरोना भाइरस जीवाणु संक्रमणस्य प्रभावः नेपालेऽपि सम्भवतीति हेतोः विषयेऽस्मिन् सचेष्टतायै सम्बद्धजनाः अनुरुन्धन्ति। गतदिने रिपोर्टर्स क्लब नेपाल संस्थायाः साक्षात्कार कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्ता महेन्द्र श्रेष्ठः कोरोना भाइरस इति संक्रमण रोगोऽस्तीति कारणेन सचेष्टेन भाव्यावस्थास्ति भयस्य अवस्था तु नास्तीति समस्पष्टयत्। चीनदेशात् प्रत्यावर्तिते एकस्मिन् नेपाली नागरिके जीवाणु संक्रमणं दृष्टं सदपि अन्येषु संक्रमणं सम्भवेद् वा इत्यवस्था नास्तीति प्रवक्ता श्रेष्ठ समस्पष्टयत्। शिक्षा विज्ञान प्रविधि मन्त्री गिरिराजमणि पोखरेलः भाषते शिक्षां श्रमेण सह योजयित्वा अग्रे वर्धनीयम्। गतदिने कैलाली जनपदस्य टीकापुरे प्रारब्धां प्राविधिक शिक्षा व्यवस्थापन प्रशिक्षण समीक्षा गोष्ठीम् उद्घाटयन् मन्त्री पोखरेलः अवोचत् शिल्पयुक्त जनशक्तेः उत्पादनस्य परिकल्पनया प्राविधिक शिक्षाधिनियमस्य निर्माण प्रक्रियायां सर्वकारः सक्रियो वर्तते। असौ अवदत् सर्वेषां कृते शिल्पम् इति शिक्षायाः अवधारणा अस्ति इति कारणेन प्राविधिक शिक्षातः प्राप्तयोः ज्ञानशिल्पयोः व्यवहारेऽपि क्रियान्वितयोः सतोः समृद्धिः सम्भविष्यति। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्टः भाषते उद्योगानां विकासाय आन्तरिक निवेशनाय प्रोत्साहनं प्रदातव्यम्। ह्य हेटौडा स्थाने उद्योग संघस्य पदाधिकारीभिः सह सम्पन्ने मेलने मन्त्री भट्टः नैजक्षेत्रं प्रोत्साह्य औद्योगिक विकासस्य रणनीतिः अग्रेसारितास्तीति चर्चयन् अभाषत उद्योगानां माध्यमेन आत्मनिर्भरतायाः दिशि सर्वकारः क्रियाशीलो वर्तते। पूर्वराष्ट्रपति डाक्टर रामवरण यादव वदति वर्तमान युगम प्राविधिक शिक्षाया युगम वर्तते। भक्तपुरस्य चागुनारायण नगरपालिकाया प्रथमवडा क्षेत्रस्थिते चागुनारायण माध्यमिक विद्यालये गतदिने प्रारब्धं श्रीमद् भागवत सप्ताह ज्ञान महायज्ञम् उद्घाटयन् पूर्वराष्ट्रपतिः डाक्टर यादव अवोचत् प्राविधिक शिक्षाया शिल्पेन चैव वृत्त्युपार्जनं वर्धिष्यते। नेपाली कांग्रेस दलस्य महामन्त्री डाक्टर शशांक कोइराला कथयति संचार स्वतन्त्रतायाः रक्षायै पत्रकारै एकताबद्धैर्भाव्यम्। नेपाल प्रेस युनियन संघस्य काष्ठमण्डप शाखया ह्य आयोजिते कार्यक्रमे महामन्त्री डाक्टर कोइराला सर्वकारेण संचार क्षेत्रे अंकुशनास्य प्रयासा वितोऽस्तीति आरोपयत। कार्यक्रमे कांग्रेस दलस्य नेता प्रकाशमान सिंह सर्वकारेण प्राजातान्त्रिकाधिकारान् संकुचितान् विधाय लोकतन्त्रं प्रहर्तुम् अपेक्षितम् इति आरोपयत। पञ्चम प्रदेशस्य मुख्यमन्त्री शंकर पोखरेलः कथयति सहमतेः आधारे प्रदेशस्य नाम राजधानी च निर्णेष्यते। प्रेस संगठन नेपालस्य पञ्चम प्रदेशस्य प्रथम मेलनम् गतदिने बुटवल स्थाने सम्बोधयन् मुख्यमन्त्री पोखरेलः अकथयत् प्रदेशस्य जनतायाः परामर्शस्य प्रदेशसभायाः सदस्यानाम् कार्यदेशस्य च आधारे प्रदेशसभायाः नाम्नः राजधान्यास्य विषये सर्वसम्मत निर्णयो भविष्यति। सुदूरपश्चिम प्रदेशस्य मुख्यमन्त्री त्रिलोचन भट्टः भासते नेपाल सर्वकारस्य कर्मचारिभिः स्वीय पुत्र पुत्र्यः अनिवार्य रूपेण सर्वकारीय विद्यालये पाठनीयाः। दीपायल सिलगढ़ी नगरपालिकायाः चतुर्थवडा क्षेत्रस्य वाग्नेटी स्थाने सर्वकारीय कर्मचारी विद्यालयस्य शिलान्यास कार्यक्रमे गतदिने मुख्यमन्त्री भट्टः सुदूरपश्चिम प्रदेशे नैज विद्यालयेषु पुत्र पुत्रीणाम् पठनाय प्रेषकाणाम् उच्चस्तरीय कर्मचारिणाम् तथ्याङ्क संकलनस्यापि पूर्वकार्यम् विधीयमानम् अस्तीति ज्ञापयन् अगदत् सर्वकारीय कर्मचारिभिः अतः परम् स्वस्य पुत्र पुत्र्यः नैज विद्यालयेषु पठनाय प्रेषणस्य परम्पराम् समाप्य सर्वकारीय विद्यालयेष्वेव प्रेषणीयाः। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला वदति दलस्य आभ्यन्तर विवादः समाहितः इत्यतः निर्धारिते एव दिनांके महाधिवेशनस्य सम्पन्नतायाः आशा अंकुरिता वर्तते इति समाचारः।